ಪ್ರತಿಗುಂ ಹವಾಮಹೇ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತವಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತಾನ ಶೃಣ್ವನ್ ಜ್ಯೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜಿನೀವತೇ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೇ ರುದ್ರಮಂಜವ ಉತೋ ದೈಷವೇ ನಮಃ ನಮಸ್ತೇ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಮುತತೇ ನಮಃ ಜಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತಪತಯಾನೋ ರುದ್ರಮೃಳಯಾತ್ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋರಘೋರಾ ಪಾಪಕಾಶಿನೇ ತಯಾನಸ್ತನು ಭಾಷಂತಮ ಯಾಗಿರಿಷಂ ತಾಭಿಚಾಕಷೇ ಯಾಮಿಷುಂ ಗಿರಿಷಂತಹಸ್ತೇ ಬಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂಕುರು ಮಾಹಿಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇ ನವಚಸಾ ತ್ವಾ ಗಿರಿಷಾರ್ಚಾ ವದಾಮಸೇ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾಸತ ಅಧ್ಯವೋಚದಿ ಭಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ ಅಹೇಕಶ್ಚ ಸರ್ವಾನ್ ಜಂಭಯನ್ ಸರ್ವಾಶಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಸ್ವ ಮಂಗಳಃ ಯೇ ಕ್ಷೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷುಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಕುಂ ಹೇಳ ಏಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪದಿನೀರಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀರಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಢುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾ ನೋ ಹಂತೇಭ್ಯೋ ಕರಣ್ ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ವಮುಭಯೋರಾತ್ನಿಯೋರ್ಜಾ ಯಾಶ್ಯ ತೇ ಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವದತ್ಯ ಧನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷ ಶತೇ ಶುಧೇ ನಿಷೇರ್ಯ ಶಲ್ಯಾ ನಾಮುಖ ಶಿವೋ ನ ಸುಮನಾ ಭವ ವಿರ್ಜಂ ಧನು ಕಪರ್ದಿ ನೋ ವಿಶಲ್ಯೋ ಬಾಣಭಾಗುಂ ಉತ ಅನೇಷನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಜಾತೆ ಹೇತಿರ್ಮೀಡುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತಿ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮ ಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯ ರಾತತಾಯ ಧೃಷ್ಣವೇ ಉಭಾಭ್ಯಾಮುತತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ಋಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯೇ ಶುಧಿಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಗಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂ ಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯವಾಹವೇ ಸೇನಾಂಗೇ ದಿಶಾಂಚಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ पशूनां पतये नमो नमः सस्मिञ्जरायद्विषेमते पथेनां पतये नमो नमो बभ्रुषाय व्याधिनेनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्ये जगतां पतये नमो नमो रुद्रायाततामिने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवत्कृतायौषधीनां पतये नमो नम उच्चैर्घोषायात्क्रन्दय देवतीनां पतये नमो नम कृत्स्नवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिने स्तेनानां पतये नमो नमो निषङ्गिन इषु धिमति तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः शिकाविभ्यो जिघागुं सद्भ्योमुष्णता पतये नमो नमो सिमद्भ्यो नक्तं चरद्भ्य प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च भो नमो नम आधन्वानेभ्य प्रतिदधानेभ्यश्च भो नमो नम आयच्छद्भ्यो वृषजद्भ्यश्च भो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च भो नमो नम आसीनेभ्य शयानेभ्यश्च भो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च भो नमो नम तिष्ठद्भ्यो धावद्भ्यश्च भो नमो नम सभाभ्यः सभापतिभ्यश्च भो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च भो नमः नम आभ्याधिनेभ्यो विविध्यन्तेभ्यश्च भो नमो नम उगणाभ्यस्तृगुंहतेभ्यश्च भो नमो नमो घृत्सेभ्यो घृत्सपदिभ्यश्च भो नमो नमो ्रातेभ्यो व्रातपदिभ्यश्च भो नमो नमो गणेभ्यो गणपदिभ्यश्च भो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च भो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च भो नमो नमो रथिभ्यो रथेभ्यश्च भो नमो नमो रथेभ्यो रथपदिभ्यश्च भो नमो नमः सेनाभ्यः सेनानिभ्यश्च भो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च भो नमो नमः सक्षभ्यो रथकारेभ्यश्च भो नमो नमः कुलालेभ्य कर्मारेभ्यश्च भो नमो नमः पुण्यस्तेभ्यो निषादेभ्यश्च भो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च भो नमो नमो मृगजुभ्यश्वनिभ्यश्च भो नमो नम श्वभ्यश्वपदिभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीनष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृद्ध्वने च नमो अग्रयाय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रयाय च शेभ्याय च नमः ऊर्म्याय चावस्वञ्जाय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो बर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धिमते च नमः तीक्ष्णे शवे च युधिने च नमः स्वायुधाय च सुधन्वने च नमः शुत्याय च पत्याय च नमः काट्याय च नीत्याय च नमः शोद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च भट्याय च नमो वर्षाय च वर्षाय च नमो मेघ्याय च विद्युत्याय च नमः ईन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः तार्याय च लाद्याय च नमः षष्ट्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिञ्जाय च प्रपत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कबर्दिने च पुलस्तये च नमो गोष्याय च गृह्याय च नमः स्थल्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निमेष्याय च नमः पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमानाय चाभिघ्नते च नमः ప్రక్షిదతే చ నమో వక్కిరిగేభ్యో దేవానాగం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వక్కేభ్యో నమార్హతేభ్యో నమామి వక్కేభ్యః ద్రావే అంధసస్పతే నరిద్రన్నీలలోహితా ఏషాం పురుషాణామేషాం పశూనాం మామేర్మా రోమో ఏషాం కించన మమత యాతే రుద్ర శివా తను శివా విశ్వామేషజే శివా రుద్రస్య మేషజే తయానో మృణ జీవసే ఇమాగం రుద్రాయ తమసే గపద్దినే క్షయద్వీరాయ ప్రపరామహే మతిం యథా నశ్యమ సద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రోతనో మయస్కృతి క్షయద్వీరాయ నమసామి దేమతే యచ్చంచయోశ్చమనురాయజే పితా తదశ్యామతమరుద్భ్రణీతో మానో మహాంతముదమానో అర్భగం మాన ఉక్షంతముదమానముక్షితం మానో వరే పితరం మోత మాతరం ప్రియామానస్తనువో రుద్రరీరిషః మానస్తోగేతన హేమాన ఆయుషి మానో ఘోషు మానో అశ్వేషురీరిషః వీరాన్మానో రుద్రభామితో భదేర్ అవిష్మంతో నమసా విధేమతే ఆరాత్తే గోగ్నభూత పూరుషగ్నే క్షయద్వీరాయ సున్నభస్మేతే అస్తు రక్షాచనో అలిజ దేవ భ్రూయదాచన శర్మయచ్చ వివర్హాః స్తురి శృతం గర్త సదయ్యుపానం మృగన్న భీమముపహత్నముగ్రం మృడాచరిత్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు సేనాః పరిణో రుద్రస్య హేతిర్వృణక్తు పరిద్వేషస్య దుర్మతిరఘాయోః అవస్థిరా మమవద్యస్తనుష్వమేతస్తోకాయతనయాయ మృడయా మీడుష్టమ శివ తమ శివో నః సుమనా భవ పరమే వృక్ష ఆయుధం నిధాయ కృత్తిం వసాన ఆచర పినాకం బిభ్రదాగహి వికిరిడ విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రకుం హేతయోన్యమస్మన్నివ పంతు తాః సహస్రాణి సహస్రధా బాహువో సవ హేతయః తాసామీషానో భగవః పరాజే నాముఖాకృతి సహస్రాణి సహస్రశోయే రుద్రాదిభూమ్యా తేషాకుం సహస్రయోజనే వదన్వాని దన్వసే అస్మిన్ మహత్యర్నవేందరిక్షే భవాధి నీలగ్రీవాశిధిగంఠా సర్వా అధః క్షమాచరా నీలగ్రీవాశిధిగంఠా దివగుం రుద్రా ఉపశ్రితాః ఏ వృక్షేషు సత్పింజరాణీలగ్రీవా విలోహితాః ఏ భూతానామదివతయో విశిగాసక్కవర్దినః ఏ అన్యేషు వివిధ్యంతి పాత్రేషు వివతో జనానః ఏ పదాంబతిరక్షయాయిలభృదాయవ్యుధః ఏ తీర్థాని ప్రచరంతి శృగావందోని సంగిలః ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే యేషావం సహస్రయోజనే వదన్వారి తన్మసే नमो रुद्रेभ्यो ये पृथिव्यां येन्दरिक्षे ये दिव्ये शामन्नं वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोदिचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु देयं विष्मो यश्च नोद्वेष्टितं भोजं मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् वश्रीवर्धनम् उर्वारुकमिह वन्दनाद्भृत्योर्मुक्षे जवामृतात् यो रुद्रो अग्नव्यो अप्सुरवोषदेषु यो रुद्रो विश्व भुवनाभिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वाणवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो वामिशान्तः तेनान्मेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्यर्मे पाहि तवष्टु हि यस्विषुधन्वायो विश्वस्य क्षयनिवेशजस्य यक्ष्वा महेतो मनसाय रुद्रम् नमो देवमधुरन्दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेषजोयगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ शरं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्त्रश्च मे यशश्च मे भगश्च मे द्रविणम् च मे जन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोऽश्च मे प्रसोऽश्च मे सेरम् च मे यश्च मृतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे वयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः ताम् महावः जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीमा देवीर्जुषताम् काम् सोऽस्मिताम् हिरण्यप्राकारा माद्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः त तस्य फलानि तपसानुदन्तु मायान्तरायाश्च भाग्या अलक्ष्मीः उपैतु माम् देवसखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिम् ददातु मे क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वाणिर्नुद मे गृहात् गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम् ईश्वरीकुम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमशीमहि पशूनाम् रूपमन्नस्य मयि श्रीश्रयताम् यशः कर्दमेण प्रजाभूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् आपसृजन्तु स्निग्धानि चिक्लेतवस मे गृहे निच देवे मातरम् श्रियम् वासय मे कुले आद्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः आद्राम् यःकरिणीम् यष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः ताम् आवह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान् विन्देयम् पुरुषानहम् यश्चुचिप्रयतो भूत्वा जुहुयादाज्यमन्वहम् श्रियः पञ्चदशर्चम् च श्रीकामः सततम् जपेत् पद्मानने पद्मभूरु पद्माक्षी पद्मसम्भवे त्वम् माम् भजस्व पद्माक्षि येन सौख्यम् लभाम्यहम् अश्वदायि गोदायि धनदायि महाधने धनम् मे जुषताम् देवि सर्वकामाश्च देहि मे पुत्रपौत्रधनम् धान्यम् हस्त्यश्वादिगवेरथम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैनते यसोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न च मात्सर्यम् न लोभो न शुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसूक्तम् जपेत् सदा वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यवब्रह्मद्विषो जहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षी विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मम् मयि सन्निधस्त्वा यासा पद्मासनस्था विपुलकटितटि पद्मपत्रा यथाक्षी गम्भीरावत्तराभित्तरभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिघनखचितैः स्नापिता हेमकुम्भैः नित्यम् सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्रगङ्गाधराम् त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् सिद्धलक्ष्मी मोक्षलक्ष्मी जयलक्ष्मी सरस्वती श्रीलक्ष्मी वरलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशौपाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्ताम् बालार्ककोटिप्रतिभां त्रिनेत्रां भजेऽहवम्बां जगदीश्वरीं त्वाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ शान्ति शान्ति शान्तिः ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनोभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः अवद्रप्सो अगुं सुमतेमतिष्ठत् या नः कृष्णो दशभिः सहस्रैः आवर्तमिन्द्रश्चाधवन्तम् उपस्नुहितम् नृमणामथद्राभिते एतयैवेन्द्रः सलावृक्या सह असुरान् परिवृश्चते पृथिव्यगुंशुमते तामन्ववस्थितः संवत्सरो दिवम् च नैवम् विदुषाचार्यान्ते वासिनौ अन्योऽन्यस्मै द्रुह्याताम् यो द्रुह्यते भ्रश्यते स्वर्गाल्लोकात् इत्युतुमण्डलानि सूर्यमण्डलान्याख्यायिकाः अथ ऊर्ध्वगुंसनिर्वचनाः आरोगो व्राजः पटरः पतङ्गः स्वर्णरो ज्योतिषेमान विभासः ते अस्मै सर्वे दिवमातपन्ते ऊर्जं दुहाणा अनपस्फुरन्त इति कश्यपोऽष्टमः स महामेरुन्न जहाति तस्यैषा भवति यत्ते शिल्पं कश्यपरोचनावत् इन्द्रियावत् पुष्कलं चित्रभानो यस्मिन् सूर्या अर्पिता सप्तसाकम् तस्मिन् राजानमधिविश्रयेममिते ते अस्मै सर्वे कश्यपा ज्योतिर्लभन्ते तान् सोमः कश्यपादधिनिर्धमते भ्रष्टा कर्मकृति वैवम् प्राणो जीवानीन्द्रियजीवानि सप्तशीर्षण्याः प्राणाः सूर्या इत्याचार्याः अपश्यमहमेतान् सप्तसूर्यानि ते पञ्चकर्णो वात्स्यायनः
సప్తకర్ణశ్చ ప్లాక్షిః ఆనుశ్రవిక ఏవ నౌ కశ్యప ఇతి ఉభౌ వేదయితే నహి శేకుమివ మహామేరుం గంతుం అపశ్యమహమేతత్ సూర్యమండలం పరివర్తమానం గార్గ్య ప్రాణత్రాతః గచ్ఛంత మహావేరుం ఏకం చాజహతం భ్రాజపటర పతంగానిహనే తిష్ఠన్నాతపంతే తస్మాదిహ తప్త్రితపాః అముత్రేతరే తస్మాదిహ తప్త్రితపాః తేషామేషా భవతి సప్త సూర్యాదివమనుప్రవిష్టాః తానందేతి పతిభిర్దక్షిణావాన తే అస్మై సర్వే ఘృతమాతపంతే ఊర్జందుహానా అనపస్ఫురంత ఇతే సప్త ద్విజ సూర్యా ఇత్యాచార్యా తేషామేషా భవతి సప్త దిశో నానా సూర్యాః సప్త హోతార ఋత్విజః దేవా ఆదిత్యాయే సప్త తేభిః సోమాభిరక్షణ ఇతే తదప్యాన్యాయః దిగ్భ్రాజరుతోన్ కరోతి ఏతయైవావృతా సహస్రసూర్యతాయ ఇతి వైశంపాయనః తస్యైషా భవతి యద్యావ ఇంద్రతే శతగుం శతం భూమేః ఉత స్యుః నత్వా వజ్రిన్ సహస్రగుం సూర్యాః అనునజాతమష్టరోదసీ ఇతి నానాలింగత్వాద్రుతూనాం నానా సూర్యత్వం అష్టౌ తు వ్యవసితా ఇతి సూర్యమండలాన్యష్టాత ఊర్ధ్వం తేషామేషా భవతి చిత్రం దేవానాముదగాదనీకం చక్షుర్మిత్రస్య వరుణస్యాగ్నేః ఆప్రాధ్యావా పృథివే అంతరిక్షం సూర్య ఆత్మా జగతస్తస్తుషశ్చేతే వేదమబ్రన్నివిశతే క్వాయగుం సంవత్సరోమితః క్వాహ క్వేయం దేవరాత్రే క్వమాసారితవశ్రితాః అర్ధమాసా ముహూర్తాః నివేశాష్టుతిభిః సహ క్వేమా ఆపో నివిశంతే యదితో యాంతి సంప్రతి కాలా అప్సు నివిశంతే ఆపః సూర్యే సమాహితాః అభ్రామ్యపః ప్రపద్యంతే విద్యుత్సూర్యే సమాహితా అనవర్ణే ఇమే భూమి ఇయం చాసౌ చరోదసీ కిగ్గస్విదత్రాంతరా భూతం యేనేమే విధృతే ఉభే విష్ణునా విధృతే భూమి ఇతి వత్సస్య వేదనా ఇరావతీధేనుమతిః భూతం సూర్యవసిని మనుషే దశస్యే వ్యష్టభ్రాద్రోదసీ విష్ణవేతే దాదర్థ పృథివీమభితో మయూఖైః కింతద్విష్ణోర్బలమాహుః కాలేప్తిః కిం పరాయణం ఏకో యద్ధారయద్దేవః రేజతే రోదసే ఉభే వాతాద్విష్ణోర్బలమాహుః అక్షరాదీప్తిరుచ్యతే త్రిపదాద్ధారయద్దేవః యద్విష్ణోరేకముత్తమం అగ్నయో వాయవశ్చైవ ఏతదస్య పరాయణం पृच्छामि त्वा परम् मृत्युम् अवमम् मध्यमञ्चतुम् लोकम् च पुण्यपापानाम् एतत्पृच्छामि सम्प्रति अमुमाहुः परम् मृत्युम् पापानम् तु मध्यमम् अग्निरेवाव मो मृत्युः चन्द्रमाश्च तुरुच्यते अनाभोगा परम् मृत्युम् पापास्तयन्ति सर्वदा आभोगास्त्वेव संयन्ते यत्र पुण्यकृतो जनाः ततो मध्यममायन्ते चतुमग्निम् च सम्प्रदे पृच्छामि त्वा पापकृतः यत्र यातयते यमः त्वन्नस्तद्ब्रह्मन् प्रब्रूहे यदि मेथा सतो गृहान् कश्यपादुदिता सूर्याः पापान् निर्घ्नन्ति सर्वदा रोदस्योरन्तर्देशेषु तत्रन्यस्यन्ते वासवैः ते शरीराः प्रपद्यन्ते यथा पुण्यस्य कर्मणः अपान्यपादकेशासः तत्र ते योधिजा जनाः मृत्वा पुनर्मृत्युमापद्यन्ते अर्ज्यमाना स्वकर्मभिः आशातिकाः क्रिमय इव ततः पूयन्ते वासवैः अपैतम् मृत्युञ्जयते य एवम् वेद सखल्वैवम् विद्ब्राह्मणः दीर्घश्रुत्तमो भवति कस्य पश्यातिति सिद्धगमनः सिद्धागमनः तस्यैषा भवति आयस्मिन् सप्तवासवाः रोहन्ति पूर्व्यारुहः ऋषिरः दीर्घश्रुत्तमः इन्द्रस्य घर्मो अतिथिरिति कश्यपः पश्यको भवति यत्सर्वम् परिपश्यतेति सौक्ष्म्यात् अधाग्नेरष्टपुरुषस्य तस्यैषा भवति अग्नेन यसुपथाराये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोज्ञस्म जुहुराणमेनः भूयिष्ठान्तेन म उक्तिम् विधेमेते अग्निश्च जातवेदाश्च सहोजा अजिरा प्रभुः वैश्वानरो नर्यापाश्च पङ्क्तिराधाश्च सप्तमः विसर्पेवाष्टमोऽग्रीणाम् एतेष्ठौ वसवः क्षिता इति यथ द्वेरग्नेरर्चिर्वर्णविशेषाः नीलाश्चिश्च पीतकाश्चिश्चेति अथवा योरेकादश पुरुषस्यैकादश स्त्रीकस्य प्रव्राजमानाव्यवदाताः याश्च वासुकि वैद्युताः रजताः परुषाः श्यामाः कपिला अतिलोहिताः ऊर्ध्वा अवपतन्ताश्च वैद्युत इत्येकादश नैनम् वैद्युतो हि नस्ति य एवम् वेद स होवाच व्यासः पाराशर्यः विद्युद्वदमेवाहम् मृत्युमयेच्छमिति न त्वकामगुम् हन्ते भद्रम् कर्णे विशृणुयामदेवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुमागुंसस्तनोभिः व्यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः స్వస్తి నః పూషా విశ్వవేదాః స్వస్తి నస్తార్క్షో అరిష్టనేమిః స్వస్తి నో బృహస్పతిర్దహాతో. ఓం శాంతి శాంతి శాంతిః. స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేన మహీమహేషాః గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం. సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. ఓం శాంతి శాంతి శాంతి.